सर्वेभ्यो नमस्कारः, सर्वेषां स्वागतम्। गतवर्गे वयं धातुगणस्य विषये वयं पठितवन्तः, किल धातुगणस्य विषये वयं पठितवन्तः। इदानीम् अहं कानिच केचन प्रश्नाः अहं पृच्छामि। अस्तु, जानकी भगिनी।
आं भगिनि,
कति धातुगणाः सन्ति?
दशधातुगणाः सन्ति भगिनि।
समीचीनं, धन्यवादः, धन्यवादः। राधिका भगिनी,
धन्यवादः भगिनि।
धन्यवादः।
आं भगिनि,
अत्र आम् एकं क्रियापदम् अस्ति चेत् भागत्रयं ज्ञातुम् आवश्यकम् अस्ति। अस्तु, तस्य नामानि कानि?
एकमस्ति धातुः, अनन्तरं विकरणप्रत्ययः, अनन्तरं तिङ्प्रत्ययः।
समीचीनं, सर्वेषां समीचीनं भगिनि, समीचीनं, सत्यं। सर्वेषां पार्श्वे एकं पुस्तकम् अथवा लेखनी अस्ति चेत् लिखित्वा लिखित्वा अहं सावधानेन वदामि, लिखित्वा लिखित्वा पठामः, सुलभः अस्ति, अवगमनार्थं सुलभः भविष्यति। कृपया सर्वेषां पार्श्वे स्वीकरोतु एकं पुस्तकम् अथवा पत्रम् अथवा लेखनी। अस्तु, यदा धातुगणस्य विषये वयं पठामः तस्मिन् सन्दर्भे कानिचन नूतननामानि अस्माभिः ज्ञातव्यानि, नाम नूतननामानि वयं ज्ञातव्यस्य आवश्यकम् अस्ति। अस्तु, उदाहरणार्थं पठति इति क्रियापदम् अस्ति चेत् भागत्रयम् अस्ति, क्रियापदम् एकमस्ति, तस्य भागं त्रयम् अस्ति। प्रथममस्ति पट् इति, पट् योगः अ योगः ति, पट् प्लस् अ प्लस् ति इति अस्ति। प्रथमभागः किम् अस्ति? पट् इति अस्ति चेत् तस्य न पद्मिनी भगिनी।
आं भगिनि,
पट् इति अस्ति चेत् तस्य किं सूचयति?
धातुः सूचयति,
धातुः अस्ति, किं सूचयति इत्युक्ते अर्थं
निर्दिश्य
पट् इति किं, तस्य विषये वदतु कृपया।
पट् पट्
धातुः अस्ति,
पट् धातुः अस्ति, अर्थं निर्दिशति।
अनन्तरं भाग द्वितीयभागः कः?
द्वितीयभागः विकरणप्रत्ययः गणं निर्दिशति,
गणं निर्दिशति, विकरणप्रत्ययः सर्वदा गणं निर्दिशति। अस्तु, आम्। अन्तिमतृतीयभागः किं सूचयति?
प्रत्ययः लकारं निर्दिशति,
लकारं निर्दिशति, सत्यं। प्रथमभागः किं निर्दिशति? अर्थं निर्दिशति।
द्वितीयभागः गणं निर्दिशति, लकारं निर्दिशति,
लकारं निर्दिशति। समीचीनं, समीचीनम्। इदानीं धन्यवादः भगिनि, धन्यवादः। अनन्तरम् ऊर्मिला भगिनि।
अस्तु भगिनि,
प्रथमगणस्य नाम किम्?
प्रथमगणस्य नाम भुवादिः गणः,
भुवादिगणः, भुवादिगणः। समीचीनं, धन्यवादः भगिनि। मधु भगिनि।
आं भगिनि,
अत्र भुवादिगणः इति अस्ति चेत् उदाहरणार्थं पठति इति क्रियापदं स्वीकुर्मः। अस्तु,
आं भगिनि, आं भगिनि।
अत्र भुवादिगणस्य विकरणप्रत्ययः कः?
भगिनि, शप् प्लस् आ
भगिनि,
शप् शप् योगः आ,
न न न न, शप् योगः न आ न भवति,
आ भगिनि,
केवलं आ एव,
आ
एव। समीचीनं, धन्यवादः,
धन्यवादः भगिनि।
आम्, आम्। विकरणप्रत्ययः
यु केन् क्वश्चिन् मी आल्सो भगिनी
सम्पूर्ण भगिनी अस्तु अस्तु समीचीनं धन्यवादः अस्तु धन्यवादः अत्र भुवादिगणः अस्ति तस्य विकरण सर्वदा विकरणप्रत्ययः किं सूचयति गणं सूचयति अस्तु विकरणप्रत्ययः आ इति अस्ति चेत् भुवादिगणः अस्तु भुवादिगणः अत्र सुधा भगिनी
आं भगिनि
भवती सावधानेन वदतु कथं विकरणप्रत्ययः इत्युक्ते अत्र आ इति वयं स्वीकृ अत्र पठितवन्तः किल परन्तु पुस्तके किं पठितवन्तः शप् इति विकरणप्रत्ययः नाम अस्ति शप् इति तस्य अनन्तरम् आ इति भवति इति किल कथं शप् आ इति भवति
अत्र विकरणप्रत्ययः अस्ति शप् शकारः पकारयोः इत्संज्ञा इति नामकरणम् अस्ति तत्र किञ्चित् सूत्राणि सन्ति सूत्रं न वदामि अत्र यथा भगिन्या उक्तं गते सप्ताहे इट् इस् लैक् पेकेजिङ्ग् मेटीरियल् इति पकारः इति पेकेजिङ्ग् मेटीरियल् तत् पेकेजिङ्ग् मेटीरियल्
त्यजामः
त्यक्त्वा पश्यामश्चेत् अत्र अकारः एव अवशिष्यते शकारः लोपः जातः अतः अकारः एव अवशिष्यते
सत्यम् अवशिष्यते इति इत्युक्ते दट् अकारः एव रिमेन्स् इति अर्थः तावदेव सर्वे अवगतवन्तः वा तावदेव तावत्पर्यन्तं वयं पठितवन्तः गतसप्ताहे मधु भगिनी एतद् विषयं स्पष्टमस्ति वा
आं भगिनि
भुवादिगणस्य पुनः पृच्छामि भुवादिगणस्य विकरणप्रत्ययः कः भगिनि
भुवादिगणस्य विकरणप्रत्ययः
अत्र एकं वक्तुम् इच्छामि कथं किमर्थम् अत्र विकरणप्रत्ययः अत्र हेण्ड् औट् अस्ति किल करपत्रं तत्र पश्यामः चेत् विकरणप्रत्ययः शप् इति कृतवन्तः लिखितवन्तः किल
but we have to understand it as like we have to leave out that packaging material and understand that only remains in that vikarna pratyaya only consider bhagini
so how will you remember shakarah akarah plus pakarah iti asti shap iti atra likarah shakarah yogah akarah yogah pakarah अत्र शकारः त्यजतु अन्तिमपकारः त्यजतु मध्ये किमस्ति अकारः तदेव अवशिष्यते इति अस्तु अत्र किमर्थम् इति अन्यरूपेण अन्य सुलभरूपेण स्मरामः इत्युक्ते कश्चन जनाः पृच्छन्ति केचन जनाः पृच्छन्ति किमर्थं शप् इति एकं नाममस्ति अनन्तरम् आकारः इति एकः अस्ति कथं न स्मरामः किं स्मरामः इति किञ्चित् भ्रमः भवति इति पृच्छामः अस्तु उदाहरणार्थं देयर्स् अनदर् अनालजि कश्चन मनुष्यस्य नामः अस्ति विष्णुः इति अस्तु मनुष्यः नामः बालकः नामः विष्णुः इति अस्ति यदा सः पाठशालां गच्छति तस्य नाम अस्ति विष्णुः इति अस्तु विष्णुः कथमस्ति विष्णुः खादति वा विष्णुः क्रीडति वा इति पृच्छन्ति यदा सः गृहम् आगच्छति चेत् विच्छु अत्र आगच्छतु विच्छु तत्र गच्छतु इति वदन्ति अत्र फार्मल् नेम् इति अस्ति किल फार्मल् पाठशालायां कार्यालये फार्मल् नेम् इति अस्ति चेत् इन्फार्मल् नेम् इति अस्ति किल पेट् नेम् इति अस्ति किल तादृशं फार्मल् नामकरणम् अस्ति शप् इति अस्तु तस्य इन्फार्मल् नामकरणम् अस्ति आकारः इति
तादृशं
सर्वे स्मरन्तु तादृशं सर्वे स्मरन्तु
धन्यवादः
धन्यवादः धन्यवादः. अस्तु माधवी भगिनी, क्लियर् माधवी भगिनी? अस्तु चम्पा भगिनी.
आं भगिनी.
अस्तु अत्र भुवादिगणस्य विकरणप्रत्ययः कः? तस्य फार्मल् नामकरणं किम्?
विकरणप्रत्यये गणं निर्दिशति.
भगभगिनी भगिनी एकनिमिषः, भवती भवती इदानीमेव अहम् उक्तवती तस्मिन् विषये अहं पृच्छामि. भुवादिगणस्य फार्मल् नामकरणं नाम भुवादिगणस्य विकरणप्रत्ययः कः?
विकरणप्रत्यय अ श
आम्
च अधिक अ अधिक प स स एन प
भगिनी चम्पा भगिनी पुनः
अ इज भवति.
पुनः अहं पृच्छामि, इदानीं भवती म्यूट् करोतु, पुनः अहं पृच्छामि, अनन्तरं पृच्छामि. अस्तु एकवारम् अन्यं पृष्ट्वा अनन्तरं पुनः अहं पृच्छामि. प्रगति भगिनी
क्षम्यतां भगिनी, अहं ऐ वाज़् अनेबल् टु म्यूट्.
नो प्राब्लम्. या आर् यू अवेलेबल् नौ?
आं भगिनि. आं भगिनि
माधवी भगिनी, भवती वदतु भुवादिगणस्य विकरणप्रत्ययः कः, फार्मल् नामकरणं किं?
शप् विकरणप्रत्ययः अस्ति भुवादिगणस्य.
भुवादिगणस्य विकरणप्रत्ययः शप्, तस्य इन्फार्मल् नाम नेम् अस्ति
अकारः.
अकारः आ एव. अस्तु अस्तु धन्यवादः भगिनि, धन्यवादः. वीनाबेन् भगिनि.
आं भगिनि नमस्कारः.
नमस्कारः. भुवादिगणस्य विकरणप्रत्ययः कः?
शप्.
आम् तस्य फार्मल् नामकरणम् अस्ति. अस्तु शप् इति आम्. तस्य अनन्तरं कश्चन कार्यं भविष्यति, अनन्तरं इन्फार्मल् विकरणप्रत्ययः कः? समीचीनं, स्पष्टमस्ति वा?
आं भगिनि.
आम् इदानीं चम्पा धन्यवादः धन्यवादः. चम्पा भगिनी.
आं भगिनि.
इदानीं भुवादिगणस्य विकरणप्रत्ययः कः?
भुवादिगणे विकरणप्रत्ययः सप्.
शप् फार्मल् नामकरणं.
फार्मल् नामकरणं
नाम गृहे सर्वदा चम्प् चम्प् इति वदति, यदा भवती बहिः गच्छति चेत् चम्पा चम्पा पटेल् भगिनी, चम्पा पटेल् भगिनी इति सर्वे वदति चेत् तत् शप् इति अर्थः. गृहे चम्पा चम्पा इति वदति चेत् तद् अकारः एव आ एव तादृशम्. अवगच्छति वा? अवगच्छति वा?
अवगच्छति भगिनी, धन्यवादः.
लघुनामः अस्ति, लघुनामः अस्ति चम्पा इति, दीर्घनामः अस्ति चम्पा पटेल् भगिनी इति, तदेव शप् इति. लघुनामः अस्ति अकारः इति आ एव. अस्तु स्पष्टमस्ति वा?
आं भगिनि आं, धन्यवादः.
समीचीनं समीचीनं. अस्तु इदानीं भुवादिगणस्य विषये वयं पठितवन्तः. किमर्थं भुवादिगणस्य नामं किमर्थं तादृशम् आगतः इत्युक्ते, भू इत्यादयः धातवः, भू इति एव धातुः अस्ति, तस्य लट्लकाररूपं भवति इति अस्ति. किं प्रथमगणः कः, तस्य तत् स्वीकृत्य एव गणस्य नामः अपि अत्र नामकरणं कृतवन्तः. अस्तु प्रथमगणः कः इति दृष्ट्वा तस्य गणस्य नामकरणमपि कृतं. यस्य गणस्य धातौ भू धातुः अस्ति सः भुवादिगणः. अस्तु भुवादिगणे प्रथमं किम् अस्ति, भागत्रयम् अस्ति. यदा क्रियापदं स्वीकुर्मः भागत्रयम् अस्ति. सम्पूर्णं भगिनी भवती वदति वा? क्रियापदमस्ति, भागत्रयम् अस्ति. प्रथमभागं किम्?
क्रियापदं धातु भगिनी.
धातु अस्ति. द्वितीयभागः किम्?
विकरणप्रत्ययः
तृतीयभागः कः
तिङ् प्रत्यय
सत्यं सत्यं धन्यवादः 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 समीचीनम् एतावत् पर्यन्तं सर्वम् अवगतवन्तः अस्तु तावत्पर्यन्तम् एव वयं कृतवन्तः गतसप्ताहे तस्मिन् विषये प्रश्नः अस्ति वा
नास्ति भगिनि
स्पष्टमस्ति किल जानकी भगिनि
आं भगिनि
स्पष्टमस्ति वा अस्तु समीचीनम् इदानीम् अग्रे गच्छामः अस्तु अग्रे द्वितीयगणस्य विषये वयं पठामः जानकी भगिनी पठति वा
आं भगिनि अदादि अदादिः द्वितीयगणः अद् इत्यादयः दातवः अत्ति इत्यादीनि क्रियापदानि विकरणप्रत्ययः नास्ति सप् इत्यस्य लुक् लोपः
अत्र टेक्निकल् नामः इति चिन्तयतु पारिभाषिकशब्दः पारिभाषिकशब्दः नाम टेक्निकल् नेम् इति तत् त्यजतु तत् त्यजतु इदानीम् अत्रापि विकरणप्रत्ययः अत्र किम् अस्ति विकरणप्रत्ययः नास्ति उदाहरणं पठतु
अस्ति हन् हन्ति वच् वक्ति आस्ते चेते
समीचीनं भगिनी अत्र केवलं प्रथम उदाहरणं स्वीकुर्मः अस्ति इति अत्र भागत्रयम् अस्ति किल भागत्रयं साधारणतया क्रियापदं स्वीकुर्मः चेत् भागत्रयम् अस्ति प्रथममस्ति धातु द्वितीयमस्ति विकरणप्रत्ययः तृतीयमस्ति तिङ्प्रत्ययः किल अत्र धातुः कः अस्तु समीचीनं विकरणप्रत्ययः कः
विकरणप्रत्ययः नास्ति
अतः तस्मिन् स्थाने किमपि नास्ति इति केवलं डेश् करोतु तावदेव अनन्तरं तस्य अनन्तरं तिङ्प्रत्ययः कः
तिङ्प्रत्ययः ति
समीचीनं ति अत्र ति किं सूचयति
तिङ्प्रत्ययः लकारं सूचयति
अत्र ति इति अस्ति चेत् कः लकारः वर्तमानकारः सत्यं 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 समीचीनम् अस्तु अत्र ति इति स्थाने तु इति अस्ति चेत् कः लकारः अस्तु अस्तु बहु समीचीनं लोट् लकारः समीचीनम् अस्तु समीचीनं भगिनि धन्यवादः भगिनि
धन्यवादः
धन्यवादः अत्र किम् अस्ति चेत् अदादिगणः अदादि द्वितीयगणस्य नाम किम् अदादिगणः अद् इत्यादयः दातवः इत्यादयः नाम एक्सेट्रा इति आदयः एक्सेट्रा अद् इत्यादयः दातवः तस्य लट्लकारूपं किम् अत्ति अत्ति इत्युक्ते ईट् इति अर्थः तस्य इदानीम् अर्थस्य अर्थः अनन्तरमेव पश्यामः परन्तु अत्र व्याकरणं विषयमेव अत्र पश्यामः अस्तु अत्ति इत्युक्ते ईट् इति अर्थः इत्यादीनि क्रियापदानि भवति अद् इति धातुः तस्य क्रियापदं कथमस्ति अत्ति इति अस्तु अत्र किमपि सन्धिकार्यम् अस्ति भविष्यति अतः अत्ति इति भवति अत्र विकरणप्रत्ययः द्वितीयगणे यदा अदादिगणः यदा द्वितीयगणः इति विषये वयं स्मरामः तस्मिन् विषये अस्माकं मनसि किं भविष्यति ओ विकरणप्रत्ययः नास्ति अत्र विकरणप्रत्ययः नास्ति इति सर्वदा स्मरणीयम्। अस्तु, अदादिगणः द्वितीयगणः सर्वदा विकरणप्रत्ययः नास्ति। अस्तु, केवलं धातुः अस्ति, विकरणप्रत्ययः नास्ति, तिङ् प्रत्ययः अस्ति। अस्तु, अस्तु, अग्रे अत्र प्रगति भगिनी। एकनिमिषः प्रगति भगिनी, एकनिमिषः, का वदति, का पृच्छति?
शोभना, अति अति इत्यादीनि क्रियापदानि किमर्थं हलन्त तकारः अति किमर्थं आगच्छति एन् एक्स्ट्रा त?
भगिनी तस्मिन् विषये एव अहम् उक्तवती इदानीम्। अद् इति धातुः अस्ति, अत्र एकं विषयं वक्तुम् इच्छामि भगिनि। एकैकस्य एकैकस्य गणे प्रक्रिया अस्ति। प्रक्रिया नाम एव्रि गण हेज़् इट्स् ओन् प्रोसीजर्स् टु डिरैव् द वर्ब्स्। अस्तु, अस्तु, एकैकस्य प्रक्रिया अस्ति। अनन्तरं यदा तस्मिन् यदा वयं प्रक्रियाविषये वयं पठामः तस्मिन् विषये कथम् अद् इति धातुः अत्ति इति भवति इति वयं पठामः। तस्मिन् विषये इदानीम् अस्माकं चर्चा नास्ति।
ओके,
केवलं आम् आम् अस्माकं लक्षणं किम् इत्युक्ते गणस्य अस्माकं लक्ष्यं किम् इत्युक्ते गणस्य लक्षणं किम् इति एव पठामः।
अस्तु भगिनि,
किमर्थम् इत्युक्ते अनेकानि विषयाणि सन्ति, अनेकानि विषयाः अनेकाः विषयाः सन्ति, बहूनि सन्ति, अतः सुलभतया सरलरूपेण वयं पठामः।
अस्तु भगिनि,
अद् इति धातुः कथम् अत्ति भवति इति अनन्तरं पठामः।
अस्तु,
प्रगति भगिनि।
आं भगिनि,
भवती द्वितीय उदाहरणं स्वीकरोतु अत्र हन् इति।
हन् हन् धातुः अस्ति, अत्र विकर्णप्रत्ययः अस्ति, तिङ् प्रत्ययः ति
अस्ति,
अतः हन्ति धातु
हन्ति
क्रियापदः क्रियापदः।
सत्यं सत्यम्। अनन्तरं
वच्, अत्र वच् इति धातु अस्ति, विकरणप्रत्ययः नास्ति, तिङ् प्रत्ययः ति अस्ति, सो द क्रियापदं वक्ति अस्ति। अत्र वच् चकारः अण्ड् तत्ति प्रत्य मध्ये सन्धिकार्यं भवति।
तस्मिन् विषये अनन्तरं पठामः। सर्वेषां कृते अहं पृच्छामि कथं वच् इति धातुः वक्ति इति भवति इति अनन्तरं पठामः। इदानीं केवलं वच् इति धातुः योगः विकरणप्रत्ययः नास्ति, योगः ति, सन्धिकार्यम् अस्ति, अतः वक्ति इति भविष्यति। अनन्तरम् अग्रिमम् अपि पठतु कृपया।
आस्, अत्र आस् धातु अस्ति, विकर्णप्रत्ययः नास्ति, अत्र तिङ् प्रत्ययः ते, अत्र धातु आत्मनेपदी अस्ति।
आत्मनेपदी, अत्र सर्वे पश्यन्तु, अत्र पदस्य अन्ते ति इति अस्ति चेत् किं सूचयति, ते इति अस्ति चेत् किं सूचयति भगिनि?
आत्मनेपदधातु अस्ति, ते अस्ति।
सत्यं सत्यं, परस्मैपदिनः इति अस्ति चेत् अन्तिम अन्तिम तिङ् प्रत्ययः अस्ति ति इति भवति, आत्मनेपदिनः इत्युक्ते अत्र अन्तिमवर्णः ते इति भविष्यति। समीचीनम्. अत्र परस्मैपदिनः आत्मनपदिनः इत्युक्ते तस्य द्वयोः मध्ये भेदः कः इति वक्तुं शक्नोति वा? अस्तु वदामि, वदतु वदतु.
तिङ् प्रत्ययविषय पृच्छति भगिनि?
न न, केवलं परस्मै, अत्र परस्मैपदिनः अपि अस्ति किल, आस्ते शेते इति, केवलं भेदः सूचनार्थम् अहं पृच्छामि. परस्मैपदिनः इत्युक्ते किम्, आत्मनेपदिनः इत्युक्ते किम् इति तावदेव. अत्र एकनिमिषः, कः वदति, का वदति?
सम्पूर्णम्
एकनिमिषः भगिनी, प्रगति भगिनी प्रयत्नं करोति, अनन्तरम् अहं पृच्छामि.
आत्मनेपदी धातु मेन्लि यूस्ड् फार् स्वविषये आत्मनेपदी धातु.
सत्यं सत्यं,
क्रियायाः प्रयोगः अस्ति.
सत्यं, क्रियायाः फलं स्वस्य कृते अस्ति. स्वस्य इत्युक्ते एम् फार् वन् सेल्फ् इति अर्थः. आत्मा इति अस्ति किल, तदेव स्वस्य कृते. क्रियायाः फलं स्वस्य कृते अस्ति चेत् आत्मनेपदिनः इति वदामः. समीचीनं भगिनि, तावदेव. परस्मैपदिनः इत्युक्ते क्रियायाः फलं,
क्रियायाः फलं अन्य इतरस्य.
आम्, अपरस्य अपरस्य
अपरस्य ओके, अपरस्य कृते फलम्.
आम् सत्यम्, अपरस्य कृते क्रियायाः फलम् अस्ति चेत् तत् परस्मैपदिनः इति वदामः. परस्मैपदिनः क्रियापदस्य अन्तिमवर्णः ति इति भवति. आत्मनेपदिनः अस्ति चेत् अन्तिमवर्णः ते इति भवति. अस्तु, धन्यवादः भगिनि. अनन्तरम् अनन्तरमपि पठतु कृपया. षि इति अस्ति चेत्
षि, अत्र षि धातुः अस्ति, विकरणप्रत्ययः नास्ति, तिङ् प्रत्ययः ते अस्ति, धातुः आत्मनेपदी अस्ति, अतः क्रियापदं भवति शेते.
सत्यं, धन्यवादः भगिनि, धन्यवादः
भगिनि.
भगिनि वदतु, वदतु.
जानकी वदामि.
वदतु
भगिनि. परस्मै पदिनः आत्मनेपदिनः पुनर् can you repeat it one more time?
पुनः वदति वा,
पुनः वदति वा भगिनि?
अहं वदामि, वदामि. क्रियायाः फलं, क्रियायाः फलम् अपरस्य कृते अस्ति चेत् परस्मैपदिनः इति वदामः. भवान् पठति वा, भवान् खादति वा इति अस्ति चेत् अपरस्य अन्यस्मिन् कृते अहं पृच्छामि किल, आक्टिव् वाय्स् इति पृच्छामः किल. ऐ एम् आस्किङ्ग् टु सम् अदर् पर्सन् इति अर्थः. क्रियायाः फलम् अपरस्य कृते अस्ति. आत्मनेपदिनः इत्युक्ते स्वयं स्वस्य विषये एव वदति चेत्, क्रियायाः फलं स्वस्य विषये अस्ति चेत् तत् आत्मनेपदिनः इति वदामः. अत्र केवलं वेदं
क्रियाफलं,
क्रियायाः फलं, क्रियायाः फलं, अत्र क्रियापदं त्रिविधाः सन्ति, परस्मैपदिनः, आत्मनेपदिनः, उभयपदिनः. परस्मैपदिनः इत्युक्ते क्रियापदस्य लट्लकारूपं सर्वदा ति इति अन्ते भवति. आत्मनेपदिनः इत्युक्ते क्रियापदस्य अन्ते ते इति भवति, शेते आस्ते इति अस्ति किल, तादृशं भवति. उभयपदिनः इत्युक्ते तादृशधातुः अस्ति, उदाहरणार्थं कृ इति धातुः स्वीकुर्मः, कृ इति धातुः स्वीकुर्मः चेत् करोति इति अस्ति क्रियापदम्, अस्ति किल. वयं भवान् एतत् कार्यं करोति वा इति वयं पृच्छामः किल, एतत् कार्यं करोतु इति वदं पृच्छामः किल, तद् परस्मैपदी धातुः अस्ति. अनन्तरं कुरुते अपि अस्ति, कुरुते अन्ते वा अन्तिमवर्णः ते इति अस्ति किल तत् आत्मनेपदिनः अस्तु केचन धातवः सन्ति ते उभयपदिनः इति वदामः ते उभयपदि धातुः परस्मैरूपमपि भवति आत्मनेपदिरूपमपि भविष्यति अस्तु ते उभयपदिनः इति वदामः अस्तु तस्मिन् विषये इदानीम् अधिकं न परन्तु केवलं परिचयार्थम् अहं पृष्टवती अहम् उक्तवती क्षम्यताम् अस्तु आत्मनेपदिनस्य विषये इदानीम् अधिकं न पठितवन्तः अग्रे गत्वा पठामः अस्तु अस्तु इदानीं प्रमुखविषयः अस्ति अदादिगणः अदादिगणः द्वितीयगणः अस्ति तस्य विकरणप्रत्ययः कः अखिला भगिनी भवती वदति वा विकरणप्रत्ययस्य अदादिगणस्य विकरणप्रत्ययः कः
अदादिगणस्य विकरणप्रत्ययः नास्ति
नास्ति तावदेव
नास्ति
अनन्तरं भुवादिगणस्य विकरणप्रत्ययः कः
भुवादिगणस्य विकरणप्रत्ययः आ अस्ति
तावदेव सर्वे स्मरन्तु अधिकं न आवश्यकम् अस्तु
आम् आम्
समीचीनम् एतावत् पर्यन्तं सर्वं स्पष्टम् अस्ति वा
आम् भगिनि
कोऽपि किमपि न अवगच्छति वा अस्तु एतावत् स्पष्टमस्ति चेत् समीचीनम् अग्रे गच्छामः अस्तु इदानीं दशधातुगणाः सन्ति प्रथमधातुगणः अस्ति भुवादिगणः तस्य विकरणप्रत्ययः अस्ति अ इति द्वितीयधातुगणः अस्ति अदादिगणः द्वितीयगणः अस्ति अदादिगणः अस्तु तस्य विकरणप्रत्ययः किं विकरणप्रत्ययः नास्ति अस्तु तावदेव विषयः अस्ति अधिकं नास्ति अस्तु अग्रे गच्छ अग्रे पठामः राधिका भगिनि
आं भगिनि
तृतीय अग्रे पठति वा
पठामि जिहोत्यादि तृतीयगणः इत्यादयः धातवः जिहोति इत्यादीनि क्रियापदानि अग्रे पठतु विकरणप्रत्ययः नास्ति शपः शलु लोपः इव लक्षणं धातोः द्वित्वम् उदाहरणं दा ददाति था दधाति वि विदेति हा जहाति
समीचीनं धन्यवादः भगिनि
धन्यवादः
इदानीं तृतीयगणस्य नाम कः जुहोत्यादि सर्वे स्मरन्तु तृतीयगणः अस्ति तृतीयगणस्य नामकरणमस्ति जुहोत्यादि इति तृतीयगणः हु इत्यादय धातवः प्रथमधातुः कः हु इति धातुः अस्ति अस्तु तस्य लट्लकाररूपं किम् जुहोति इति अस्ति हु इति धातुः अस्ति तस्य क्रियापदं लट्लकाररूपं किम् अस्ति जुहोति इति भवति अस्तु किमर्थं हु इति धातुः परन्तु क्रियापदं जुहोति इति अस्ति किमर्थम् इत्युक्ते सौकर्यार्थं केवलं सौकर्यार्थं हु इति धातुः जु इति परिवर्तनम् अभवत् अस्तु तस्य प्रक्रिया अनन्तरं पश्यामः परन्तु केवलं सौकर्यार्थं हु इति धातुः जु इति अभवत् अस्तु अतः जुहोति इति क्रियापदं भविष्यति हु जुहोति इति प्रथमक्रियापदम् अस्ति किल अत्र अतः तस्य तृतीयगणस्य नाम किं जुहोत्यादि इति एव नाम तृतीयगणस्य नाम किं जुहोत्यादि किमर्थं चेत् प्रथमक्रियापदं हु इति धातुः तस्य क्रियापदं जुहोति अतः गणस्य नाम अपि जुहोत्यादि अस्तु मधु भगिनी
आं भगिनि
अत्र किमर्थं हु इति प्रथम अत्र धातुः उदाहरणार्थं हु धातुः कः हु
ओ भगिनि
तस्य क्रियापदं किं
जुहोति
जुहोति किमर्थं हु जु इति अभवत्
I could not get that, Bhagini. Movie told. Aam, Bhagini.
Kimartam, who iti dhatu hu, ju iti abhavat. Kimartam iti te, uchharna saukaryartam.
Aam, Bhagini.
Uchharna saukaryartam, who iti dhatu hu, ju iti abhavat. Asto?
Aam, Bhagini.
Paribhashika vishyam, vishyam, anantaram vyakaranam vedavaya vayam patamaha, tasmin samdarpe vayam patamaha, परन्तु तावत् सरलरीत्या वयम् अवगच्छामः अस्तु हु किमर्थं जुहोति इति भवति चेत् सौकर्यार्थं हु इति धातुः जु इति तावदेव तावदेव अस्तु अत्र अत्र विकरणप्रत्ययः कः
विकरणप्रत्ययः नास्ति भगिनि
अत्रापि विकरणप्रत्ययः नास्ति अनन्तरं नास्ति अनन्तरं लक्षणं किम् एतस्मिन् गणे लक्षणं किं
धातोः द्वित्वं
धातोः द्वित्वम् अकर्ण अत्र विकरणप्रत्ययः नास्ति अस्तु अनन्तरं द्वितीयं विषयं किं प्रमुखविषयः किं लक्षणम् अस्ति धातोः द्वित्वम् इति अस्तु अत्र द्वितीयगणः कः भगिनि द्वितीयगणः कः
भगिनि
जुहोत्यादि तृतीयगणः भगिनि
द्वितीयगणः
अत्रापि विकरणप्रत्ययः नास्ति किल
आं भगिनि
तृतीयगणे अपि विकरणप्रत्ययः नास्ति
But here there are two dhatus, dhatoh dhitvam.
Satyam. Pramukha vishyam asti, mahatvapurna vishyam. Mahatvapurna vishyam iti yukte, important point to be noted. Mahatvapurna vishyam asti, lakshanam. Lakshanam kim iti yukte, dhatoh dhitvam. Nama, it will double iti arthaha. Dhatuhu dhivaram bhavishyati iti. Iti arthaha.
Aam bhai.
धन्यवादः भगिनि
धन्यवादः
अत्र माधवी भगिनी
आं भगिनि
अत्र उदाहरणं पठति वा
आं भगिनि उदाहरणं दा लट्लकारः ददाति क्रियापदं ददाति
अत्र धातुः कः विकरणप्रत्ययः कः तिङ् प्रत्ययः कः
धातुः दा विकरणप्रत्ययः नास्ति धातोः द्वित्वं भवति दा योगः दा तिङ् प्रत्ययः ति
अत्र विकरणप्रत्ययः यदा क्रियापदमस्ति चेत् भागत्रयम् अस्ति धातुः प्रथमं धातुः अस्ति द्वितीयं विकरणप्रत्ययः अस्ति तृतीयं तिङ् प्रत्ययः अस्ति अस्तु अत्र धातुः किं भविष्यति द्वित्वं भवति इट् विल् डबल् द धातुः विल् डबल् इति चिन्तयतु तादृशं चिन्तयतु दा इति धातुः अस्ति द दा इति भविष्यति अनन्तरं विकरणप्रत्ययः नास्ति तिङ् प्रत्ययः ति इति अस्ति अतः क्रियापदं कथं भवति द दाति इति अनन्तरं पठतु कृपया धा इति धा अपि त्यजतु अनन्तरं भी पठतु
भी धातुः भी क्रियापदं मध्ये भी योगः भी धातोः द्वित्वं भवति विकरणप्रत्ययः नास्ति तिङन्त तिङ् प्रत्ययः ति अस्ति तदर्थं भी योगः ति बिभेति क्रियापदं भवति
अस्तु समीचीनम् अत्र एकः प्रश्नः उदेति अस्माकं मनसि धातुः द्वित्वं भवति इति अवगच्छामि प परन्तु अत्र महाप्राणः वा अस्ति अल्पप्राणः वा अपि अस्ति, कथम् इति अस्माकं मनसि प्रश्नः उदेति किल. तस्मिन् विषये अपि कश्चन प्रक्रिया अस्ति. प्रक्रिया नाम दर् इस् सम् प्रोसीजर् टु डिरैव् अट् दि क्रियावर्ब्. हौ फ्रम् द धातु हौ डु वि अरैव् अट् दि क्रियापदम् लट्लकारूपं. दर् आर् सर्टन् प्रोसीजर्स्, कश्चन प्रक्रिया अस्ति. तस्मिन् विषये वयं न जानीमः, परन्तु केवलं प्रक्रिया विना वि आर् इग्नोरिङ्ग् द प्रोसीजर्स्. वि आर् जस्ट् लर्निङ्ग् हौ द धातु टर्न्स् इन् टु क्रियापदं. तावदेव वयम् इदानीं पठामः. भी इति धातुः अस्ति, तस्य क्रियापदमस्ति बिबेति. अत्र अल्पप्राण बा अपि अस्ति, महाप्राण बा अपि अस्ति, बिबेति इति भवति. धातुः द्वित्वं भवति इति एव अत्र सूचनमस्ति, अत्र अस्ति. अस्तु, अग्रे अग्रे अपि पठतु कृपया.
हा धातुः अस्ति, हा योगः हा धातोः द्वित्वं भवति, अतः हा योगः हा योगः हा योगः विकरणप्रत्ययः किमपि न भवति, विकरणप्रत्ययः नास्ति. योगः तिङ् प्रत्ययः ति अस्ति. क्रियापदं जहाति इति भवति.
सत्यम्. अत्रापि हा इति धातुः अस्ति, परन्तु तस्य स्थाने जा इति आगच्छति. यदा क्रियापदम् अस्ति चेत् जा इति अस्ति. किमर्थम्? उच्चारणसौकर्यार्थं जा इति अत्र अस्ति. अस्तु, तावदेव विषयं, तावदेव अस्ति. अग्रे गत्वा गत्वा यदा व्याकरणं वयं पठामः, तस्मिन् सन्दर्भे किमर्थं दधाति दधाति बिभेति इति तस्मिन् प्रक्रियाविषये वयम् अधिकं पठामः. इदानीं तस्मिन् विषये पठामः चेत् भ्रमः भविष्यति. अतः सरलरीत्या गणस्य लक्षणं किं, दशगणेषु दशगणानां लक्षणं किम् इति एव वयं पठामः. अस्तु, तृतीयगणः अस्ति, तस्य नाम अस्ति जुहोत्यादि इति नाम अस्ति. विकरणप्रत्ययः नास्ति, परन्तु द्वितीयगणे अपि विकरणप्रत्ययः नास्ति, तृतीयगणे अपि विकरणप्रत्ययः नास्ति. तयोः मध्ये भेदः कः इत्युक्ते, यदा क्रियापदे द्वित्वम् अस्ति चेत् तृतीयगणे भवति क्रियापदं, तृतीयगणे भवति इति अवगच्छामः. अस्तु, पद्मिनी भगिनी.
आं भगिनि.
द्वितीयगणः अस्ति, तृतीयगणः अस्ति, तयोः मध्ये भेदः कः भगिनि?
तृतीयगणस्य लक्षणं धातोः द्वित्वं भवति.
आम्, यदा ददाति इति क्रियापदम् अस्ति, अनन्तरम् अस्ति इति क्रियापदम् अस्ति, कथं भवति भेदः जानाति? द्वितीयगणः कः, तृतीयगणः कः इति कथं जानाति भवती? द्विवारं धातुः
द्वित्वं भवति, तृतीयगणः भवति जुहोत्यादिगणः.
सत्यं सत्यं. यदा धातुः धातोः मध्ये द्वित्वं नास्ति चेत् विकरणप्रत्ययः अपि नास्ति इति जानीमः चेत् सत्यं सत्यं सत्यं. तावदेव तावदेव. आम्, समीचीनम्. धन्यवादः धन्यवादः. समीचीनम्. एतावत् पर्यन्तं सर्वं स्पष्टम् अस्ति वा?
आं भगिनि.
एतावत् पर्यन्तं कुत्रापि प्रश्नः अस्ति वा? चम्पा भगिनी, चम्पा भगिनी,
स्पष्टमस्ति भगिनि?
स्पष्टमस्ति वा? तयोः मध्ये कः भेदः? अदादिगणः जुहोत्यादिगणः अस्ति, द्वितीयगणः अस्ति, तृतीयगणः अस्ति, तयोः मध्ये भेदः कः?
अदादिगणे लक्षणं न भवति, जिह्वादिगणे तृतीयगणे लक्षणं भवति, द्वितीयं क्रियापदम् अस्ति.
द्वितीयं क्रियापदमिति न,
द्वितीयं
द्वित्वं नाम धातुः द्विवारं भविष्यति, अतः द्वित्वं
द्वित्वं
द्वित्वं क्रियापदं द्विवारं न भविष्यति. धातुः द्विवारं भविष्यति, अतः तदेव द्वित्वम् इति वदामः. अत्र यदा धातुः द्विवारं लिखामः चेत् तत्र फन्धिकार्यं भविष्यति, अतः अत्र ददाति ददाति इति भेदः अत्र आगच्छति. अस्तु
अस्तु,
तस्मिन् विषये इदानीं न पठामः, प्रक्रियायाः विषये वयं न पठामः, केवलं कथं लक्षणमेव वयं पठामः. द्वितीयगणः, द्वितीयगणे विकरणप्रत्ययः नास्ति, तृतीयगणे विकरणप्रत्ययः अपि नास्ति, परन्तु भेदः कथं वयं ज्ञास्यामः चेत् तृतीयगणे द्वित्वं धातोः द्वित्वं भवति, तद् ज्ञास्यामः चेत् क्रियापदं द्वितीयगणे भवति वा तृतीयगणे भवति वा इति वयं जानीमः, ज्ञास्यामः, ज्ञातुं शक्नुमः. अस्तु
अस्तु भगिनि,
समीचीनं.
क्षम्यतां भगिनि, शपः श्लू कथम् आगच्छति? श्लू शपः श्लू लोपः इव
तत्सर्वं पारिभाषिकविषयः अस्ति. इत्युक्ते यदा वयं विकरणं व्याकरणं पठामः तस्मिन् सन्दर्भे तत्सर्वं पठामः.
अस्तु,
लोपः भविष्यति, लोपः भविष्यात् लोपः भविष्यति, केवलं विकरणप्रत्ययः नास्ति इति एव अत्र स्वीकुर्मः, लोपः इव.
अस्तु भगिनि, धन्यवादः भगिनि.
धन्यवादः, धन्यवादः. अनन्तरम् अग्रे गच्छामः, चतुर्थगणः. अस्तु, चतुर्थगणः विषये वयं पठामः. सुधा भगिनि पठति वा?
आं भगिनि. दिवादिः चतुर्थगणः, दिव् इत्यादयः धातवः, दीव्यति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः ष्यन् यकारः अवशिष्यते. उदाहरणं नश्.
भगिनि भगिनि अत्र अत्र वदतु, दिव् इति धातुः अस्ति, धातुः अस्ति, तस्य क्रियापदं कथं भविष्यति?
दीव्यति.
दीव्यति, तस्य तयोः मध्ये दिव् इति धातुः अस्ति, अनन्तरं क्रियापदं दीव्यति इति अस्ति, तयोः मध्ये कश्चन प्रक्रिया अस्ति. प्रक्रिया नाम दर् इस् सम् प्रोसीजर्स् दट् हेपन्स् बिट्वीन् द धातु अण्ड् द क्रियापदं विच् वि विल् नाट् विच् यु आर् नाट् लर्निङ्ग् नौ. अस्तु, दिव् इति धातुः, दीव्यति इति क्रियापदम्. अस्तु, विकरणप्रत्ययः कः? ष्यन् इति अस्ति विकरणप्रत्ययः, तद् फार्मल् नेम् इति अस्ति. ष्यन् इति फार्मल् नेम्. यदा पाठशालां गच्छामः, मम नाम किम् अस्ति? चम्पा पटेल् इति अस्ति. यदा गृहे वयं गृहे अस्मः चेत् मम नाम किम् अस्ति? चम्पा इति एव अस्ति. अस्तु, तादृशं फार्मल् नेम्, फार्मल् नामकरणं किम् अस्ति? अत्र ष्यन् इति अस्ति. आम्, अत्र कः कथं यकारः आगच्छति?
अत्र शकारः नकारः पैकेजिङ्ग् मेटीरियल् अस्ति, तद् त्यक्त्वा यकारः एव अवशिष्यते.
तावदेव तावदेव. अस्तु, यकारः तिष्ठति, अवशिष्यते. अस्तु, चतुर्थगणः अस्ति दिवादिगणः. किं किमर्थं दिवादि इत्युक्ते प्रथम धातुः अस्ति अत्र दिव् इति धातुः, तस्य क्रियापदं दीव्यति इति अस्ति, तस्य तत् स्वीकृत्य तस्य गणस्य नाम अत्र नामकरणं कृतवन्तः, दिवादिगणः इति. उदाहरणं पठतु कृपया.
उदाहरणं नश् नश्यति, नृत् नृत्यति.
भगिनि एकनिमिषकम्, अत्र नश् इति अस्ति किल, भागत्रयं कृत्वा वदतु कृपया.
नश् इति धातुः अस्ति, नश् योगः, ष्यन् इति विकरणप्रत्ययः अस्ति,
केवलं
एव अस्ति. नश् योगः विकरणप्रत्ययः या अस्ति, तिङ् प्रत्ययः ति अस्ति, अन्तिमरूपम् अस्ति नश्यति.
समीचीनं समीचीनं, धन्यवादः भगिनि. शोभना भगिनि, शोभना भगिनि अस्ति वा?
अस्मि भगिनि.
अस्तु, समीचीनं. भवती अवगतवती वा अत्र चतुर्थगणस्य विषये?
आम् आम्.
विकरणप्रत्ययः कः?
एकनिमिषं भगिनि. ओके, विकरणप्रत्यय दिवादिगण, दिवादि दिवादिगणः. ओ सोरि, विक्रणप्रत्यय श्य य
तावदेव. दिवादिगणः चतुर्थगणः अस्ति, तस्य विक्रणप्रत्ययः कः इति एव मम प्रश्नः आसीत्.
दिवादिगणस्य विक्रणप्रत्यय य अस्ति.
य, तावदेव, समीचीनं. इदानीम् उदाहरणं, द्वितीय उदाहरणं पठतु कृपया, द्वितीयं.
नृत् नृत्यति. सो नृत् धातु य विकरणप्रत्यय ति तिगन्त तिङ्प्रत्यय.
समीचीनं. अनन्तरं
कुप्, कुप् धातुः य विकरणप्रत्यय ति तिङन्त तिङ्प्रत्ययः.
समीचीनं.
कुप्यति. एवमेव कृत्, कृत् धातुः य विक्रणप्रत्यय ति तिङन्तधातुः.
सत्यं, तिङ्गद् प्रत्ययः,
तिङ् प्रत्ययः. तुष्, तुष् तुष् धातुः य विक्रणप्रत्यय तिङ्गन् तुष्यति तिङ् प्रत्यय. ति तिङ् प्रत्यय तुष्यति भवति.
सत्यं. इदानीं स्पष्टमस्ति वा भगिनि?
आम् आं भगिनि.
दिवादिगणस्य विकरणप्रत्ययः कः?
दिवादिगणस्य विकरणप्रत्यय य.
तावत्, समीचीनं समीचीनं. धन्यवादः भगिनि.
धन्यवादः भगिनि.
अखिला भगिनी अस्ति वा?
आम् आं भगिनि.
अग्रे पठति वा मन् इति?
आं भगिनि. मन् मन्यते. मन् मन् धातुः य विकरणप्रत्ययः ते तिङ् प्रत्ययः. इदानीं मन्यते मन्यते आत्मनेपदी धातु. सो टी बिकम्स् ते.
सत्यं सत्यम्. अतः मन्यते धातुः मन्यते भवति.
विद्यते. विद्यते विद् इति धातु य इति विकरणप्रत्ययः ते इति तिङ् प्रत्ययः. विद्यते अपि आत्मनेपदी धातु.
समीचीनं समीचीनं, बहु समीचीनं. अस्तु, इदानीं सर्वं स्पष्टमिति अहं मन्ये. चतुर्थगणः अस्ति, दिवादिगणः, विकरणप्रत्ययः य इति अस्ति. अस्तु, समीचीनं भगिनि. अखिला भगिनि, स्पष्टमस्ति. धन्यवादः.
आं भगिनि, आं
धन्यवादः. इदानीं सम्पूर्णं भगिनि अस्ति वा?
आं भगिनि.
आम्, इदानीम् अहं पृच्छामि, भवती वदतु, प्रथमगण नाम किं?
भुवादिगणं.
विकरणप्रत्ययः कः? द्वितीयगणः नाम किम्?
अदादिगणः.
विकरणप्रत्ययः कः?
नास्ति.
समीचीनं. तृतीयगणः नाम किम्?
जुहोद्यादिः.
आं सत्यं. विकरणप्रत्ययः कः?
नास्ति.
परन्तु तस्य लक्षणं किं
धातोः द्विधवं
द्वित्वं समीचीनं समीचीनं. चतुर्थगणः नाम किं
दिवादिगणः.
विकरणप्रत्ययः कः?
य.
समीचीनं, धन्यवादः भगिनी, धन्यवादः. वीणाबेन् भगिनी.
आं भगिनि.
भवती अपि तदेव वदतु. प्रथमगणस्य नाम किं?
द्वादिगणः.
विकरणप्रत्ययः?
ओ.
द्वितीयगणस्य नाम किम्?
अदादिगणः.
विकरणप्रत्ययः?
विकरणप्रत्ययः नास्ति.
तृतीयगणस्य नाम किं?
जुहोत्यादिगणः.
विकरणप्रत्ययः?
तत्र अपि विकरणप्रत्ययः नास्ति, किन्तु धातोः द्वित्वं भवति.
अस्तु, द्वितीयगणः अस्ति, तृतीयगणः अस्ति, तयोः विकरणप्रत्ययः नास्ति. परन्तु भेदः कः, कथं जानाति भवती?
अदादिगणे द्वित्वं न भवति धातोः, जुहोत्यादिगणे धातोः द्वित्वं भवति.
समीचीनं, बहु समीचीनं, तावदेव.
धन्यवादः.
चतुर्थगणः नाम किं?
चतुर्थगणः दिवादिगणः.
समीचीनं. विकरणप्रत्ययः?
य प्रत्ययः.
समीचीनं समीचीनं, धन्यवादः भगिनि.
धन्यवादः, बहु सम्यक् पाठयति भगिनि.
अवगच्छति चेत् बहु अहमपि सन्तोषं भवामि भगिनि, धन्यवादः. अस्तु, एकनिमिषः. अस्तु, अनन्तरं पञ्चमगणः. अस्तु, क्लीवन् माधवी भगिनि.
आं भगिनि.
पञ्चमगणः नाम किं?
स्वादिगणः, स्वादिः.
सत्यं, तस्य पञ्चमगणस्य नाम स्वादिगणः. अग्रे पठतु कृपया.
आं भगिनि, पञ्चमगणः स्वादिः, पञ्चमगणः, पञ्चमः गण इत्यादयः धातवः. सुनोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः श्रु. नु नो उदाहरणं. आप् क्रियापद, आप् धातुः अस्ति, आप्नोति क्रियापदम् अस्ति. धातुः अस्ति, चिनोति क्रियापदम् अस्ति. शक् धातुः अस्ति, शक्नोति क्रियापदम् अस्ति. धू धातुः अस्ति, धूनोति क्रियापदम् अस्ति.
बहु समीचीनं, बहु समीचीनम्. अत्र पञ्चमगणस्य नाम अस्ति स्वादिगणः, स्वादिगणः इति. यत्र प्रथम, अत्र स्वादिगणः कथम् आगच्छ इति, नामकरणं कथं भविष्यति इत्युक्ते, प्रथमधातुः अत्र सु इति अस्ति. सु कथं भवति, तस्य लट्लकारूपं किं भवति, भविष्यति भगिनि?
सुनोति.
सुनोति इति, सुनोति, अतः स्वादिगणः इति नामकरणम् आगच्छति अत्र. अस्तु, अत्र विकरणप्रत्ययः किम् इत्युक्ते, फार्मल् नामकरणम् इत्युक्ते किं भगिनि?
श्रु,
श्नु, श्नु इति एव फार्मल् नामकरणम्. अस्तु, अस्तु, अत्र फार्मल् नामकरणमस्ति श्नु इति. अनन्तरं कार्यं, किमपि कार्यं भवति, अतः नु इति भवति. अत्र शकारः गच्छति, त्यजामः. नु इतीव भवति. अनन्तरं किमपि कार्यं भविष्यति, अतः नु इति भवति. अतः तस्य इन्फार्मल् नामकरणं कथं भवति? नो एव, नो एव. स्वादिगणस्य विकरणप्रत्ययः कः इत्युक्ते नो इति एव वक्तव्यम्. अस्तु
नो स्वादिगणः फार्मल् इन्फार्मल् नामकरणमस्ति नो इति एव अस्तु उदाहरणमस्ति आप् इति भवती भगिनी भवती वदतु आप् इति भागत्रयं कृत्वा वदतु कृपया आप्नोति कथं भवति इति
आप् धातुः अस्ति आप् योगः नो विकरणप्रत्ययः अस्ति तस्य योगः तिङ् प्रत्ययः ति अस्ति आप् योगः नो योगः ति आप्नोति भवति
अत्र विकरणप्रत्ययः नो अत्र आगच्छति वा अतः नो इति अस्ति चेत् स्वादिगणः अग्रे अपि पठतु कृपया
आं भगिनि ची धातुः अस्ति विकरण ची योगः विकरणप्रत्ययः नो अस्ति तस्य योगः तिङ् प्रत्ययः ति अस्ति ची योगः नो योगः ति चिनोति भवति
सत्यं चिनोति अत्र नो आगच्छति विकरणप्रत्ययः नो इति आगच्छति समीचीनम् अग्रे शक्
शक् शक् धातुः अस्ति शक् योगः नो योगः ति विकरणप्रत्ययः नो अस्ति तिङ्प्रत्ययः ति अस्ति शक् योगः नो योगः ति शक्नोति भवति
समीचीनम् अग्रे
धू धातुः अस्ति नो विकरणप्रत्ययः अस्ति तिङ्प्रत्ययः ति अस्ति धू योगः नो योगः ति धूनोति भवति
अत्र सर्वत्र कः वर्णः आगच्छति विकरणप्रत्ययः कः
नो
नो इति एव विकरणप्रत्ययः यदा क्रियापदस्य मध्ये नो इति आगच्छति चेत् तत्र स्वादिगणः इति वयम् अवगच्छामः स्पष्टमस्ति वा सर्वेषां कृते अहं पृच्छामि केवलं माधवी भगिनी एव न सर्वेषां कृते अहं पृच्छामि स्पष्टमस्ति वा
आं भगिनि
समीचीनं धन्यवादः माधवी भगिनि ऊर्मिला भगिनी
आं भगिनि
यदा क्रियापदे विकरणप्रत्ययः आ इति अस्ति चेत् तस्य गणः कः
आ अस्ति चेत् भुवादिगणः
यदा विकरणप्रत्ययः नास्ति यदा क्रियापदे
विकरणप्रत्ययः
अथवा किं भवितुम् अर्हति
पुनः भगिनी अहं सम्यक् न जानामि
विकरणप्रत्ययः नास्ति चेत् के गणः गणेषु भवितुम् गणयोः भवितुम् अर्हति
पदादिगणे विकरणप्रत्ययः नास्ति ज्योत्यादिगणे अपि विकरणप्रत्ययः नास्ति
भेदः कः भवति जानाति
भेदः जुहोत्यादिगणे धातोः द्वित्वं भवति
सत्यं तद् दृष्ट्वा भवती न्यास्य वयं जानीमः कस्मिन् गणे भविष्यति इति द्वित्वं नास्ति चेत् अदादिगणे द्वित्वम् अस्ति चेत् जुहोत्यादिगणे भविष्यति इति वयम् अवगच्छामः समीचीनम् अनन्तरं नो इति क्रियापदस्य मध्ये नो इति एकं विकरणप्रत्ययः आगच्छति चेत् कस्मिन् गणे भविष्यति
स्वादिगणे भवति
सत्यं विकरणप्रत्ययः या इति अस्ति चेत् कस्मिन् गणे भविष्यति
दिवादिगणे अस्ति
उदाहरणं यका या इति अस्ति चेत् उदाहरणं वदतु
दिव् धातुः अस्ति या विकरणप्रत्ययः
भगिनि केवलम् उदाहरणम् इति पृच्छामि चेत् नश्यति नृत्यति इति वदतु
नश्यति तत्र नश् धातुः अस्ति य विकरणप्रत्ययः तिङन्तप्रत्ययः सो नश्
समीचीनं स्वादिगणस्य उदाहरणं
स्वादिगणस्य उदाहरणम् आप्नोति आप् धातुः अस्ति नो विकरणप्रत्ययः अस्ति तिगन्तप्रत्ययः ति अस्ति सो आप्नोति क्रियापदः भविष्यति
बहु समीचीनम् एतावत् पर्यन्तं सर्वं स्पष्टमस्ति वा सर्वेषां कृते अहं पृच्छामि
आं भगिनि
स्पष्टमस्ति किल अस्तु समीचीनं प्रश्नः अस्ति चेत् पृच्छन्तु सर्वे सङ्कोचः मास्तु लज्जा मास्तु अस्तु
भवती सम्यक् पाठयति वि डोन्ट् हेव् टु इवन् मेमरैस् रिपीटेशन् क्लेरिफिकेशन् इट्स् वेरि
वेरि मच् क्लास् भगिनि धन्यवादः
धन्यवादः धन्यवादः अनन्तरम् अग्रे गच्छामः षष्टमगणः अस्तु षष्टमगणः बहु महत्त्वपूर्णगणः अस्ति षष्टमगणः मधु भगिनी पठति वा
आं भगिनि तुदादिः षट् गणः षटः गणः
भगिनि भगिनि अत्र षष्टः
षष्टः गणः तुत् इत्यादयः दातवः तुदति इत्यादीनि क्रियापदानि विकरणप्रत्यय उदाहरणं मिल् मिलति लिख् लिखति क्षिप् क्षिपति कृष् कृषति
अस्तु समीचीनम् अत्र अत्र पुनः अहम् एकं वदामि तुदादिगणः इति षष्टमगणः अस्तु तुदादि अत्र किमर्थं तुदादि इति आगच्छति प्रथमधातुः अस्ति तुद् इति तस्य क्रियापदं कथं भवति तुद् इति धातोः क्रियापदं कथं भवति
तुदति
तुदति अतः तुदति इति प्रथमक्रियापदमस्ति अतः तस्य नामकरणमपि तुदादि इति आगच्छति अस्तु तुदादि इति आगच्छति विकरणप्रत्ययः कः
शा इस् अ फार्मल् नेम् इन्फार्मल् इस् आ
कथम् इन्फार्मल् नाम फार्मल् उदाहरणं भवति एव अन्य लौकिक अनालजि अहम् उक्तवती किल तद् वदतु कृपया
लैक् इट् इस् लैक् वेन् वि गो टु द स्कूल् द फुल् नेम् इस् काल्ड् बट् वेन् वि कम् होम् ओन्लि वि हेव् टु लीव् दट् पेकेज् अण्ड् tell only the informal, that is a
vishnu iti namah asti che namah
vichu we will call it as vichu
agrihe vichu vichu iti vadamah paata shaalaya karya karyalaye vishnu vishnu iti vadamah tadeva sha iti asti
formal
iti sha iti asti informal nama vichu iti kila tadeva atra a iti asti
aam bhagini
अत्र उदाहरणमस्ति मिल् इति भवती वदतु भवती त्रिषु भागं कृत्वा वदतु
मिल् धातु योगः आ योगः टि टि लकारः आयुर्विकरणप्रत्यय मिलति क्रियापदानि
मिलति इति क्रियापदानि इति न क्रियापदम् एकमेव
क्रियापदं क्रियापदं
क्रियापदं मिल् इति धातुः इति विकरणप्रत्ययः ति इति तिङ्प्रत्ययः सर्वं करोतु लिक् अपि कथं करोतु
लिक् धातुः आ विकरणप्रत्यय त्रि ति लकारः क्रियापदं लिखति
अग्रे
शिप् शिप् धातुः आ विकरणप्रत्यय ति लकारः क्रियापदं क्षिपति क्षिपति कृष् कृष् धातुः योगः आ विकरणप्रत्यय योगः ति लकारः क्रियापदं कृषति भगिनी बट् फस्ट् अण्ड् दि सिक्स्त् वन् वाट् इस् द डिफ्रेन्स् भगिनि
बहु सुन्दरं भगिनि बहु सुन्दरं तदेव अग्रिम अग्रे अहं वक्तुम् इष्टितवती तदेव भवती अपि पृष्टवती बहु समीचीनम् अत्र तुदादिगणः इत्युक्ते विकरणप्रत्ययः आ इति वदामः बहु सुलभतया अवगन्तुं शक्नुमः परन्तु प्रथमगणः अस्ति भुवादिगणः, तस्य विकरणप्रत्ययः अपि आ अस्ति. षष्टमगणः अस्ति तुदादिगणः, तस्य विकरणप्रत्ययः अपि आ अस्ति. तयोः मध्ये भेदः कः, कथं जानीमः वयम्? अस्तु, व्याकरणे एकः सिद्धान्तः अस्ति गुणः नाम्ना. इत्युक्ते सिद्धान्ते स्वरस्य परिवर्तनं भवति, नाम स्वरः अस्ति किल भगिनि, स्वरस्य परिवर्तनं भवति. अस्तु, स्वरः नाम किं, स्वरः नाम किम्? वदतु, सर्वं वदतु.
स्वराः भगिनि,
स्वराः किल, सत्यं सत्यं, समीचीनं, सम्यक् न उक्तवती. सिद्धान्ते स्वरस्य परिवर्तनं भवति, विकृतरूपस्य गुणसंज्ञा भवति. नाम उदाहरण इत्युक्ते ईकारः, अस्तु, ईकारः, ऊकारः, ऋकारः, ईकारः, ऊकारः, सर्वे लिखन्तु, सर्वे लिखन्तु. यदाहं सावधानेन वदामि, अहं किं वदामि इत्युक्ते प्रथमगणः षष्टमगणः, प्रथमगणः विकरणप्रत्ययः आ अस्ति, षष्टमगणस्य विकरणप्रत्ययः आ अस्ति. तयोः मध्ये भेदः कः इति ज्ञातुम् आवश्यकम् अस्ति. अस्तु, कथं ज्ञास्यामः, तस्मिन् विषये एव अहम् इदानीं विवरणं वदामि. इकारः, उकारः, ऋकारः, अस्तु, धातोः अन्ते, धातोः अन्ते इकारः, ऋकारः, उकारः आगच्छति चेत् तस्य परिवर्तनं भविष्यति. यदा क्रियापदं लिखामः चेत् तस्य परिवर्तनं भवति. तादृशं परिवर्तनं भवति चेत् कस्मिन् गणे भवति क्रियापदं? भुवादिगणे. भुवादिगणे गणस्य अन्ते धातोः अन्ते कः भवति वदतु, के के स्वराः इति?
ईकारः, ऊकारः, ऋकारः, धातोः अन्ते.
सर्वे स्मरन्तु, के के स्वराः? इकारः, उकारः, ऋकारः, धातोः अन्ते आगच्छति चेत् तद् क्रियापदं कुर्मः चेत् परिवर्तनं भवति चेत् परिवर्तनं भवति चेत् देन् इट् बिलाङ्ग्स् टु भुवादिगणः. उदाहरणं पश्यामः वा भगिनि?
आं भगिनि,
उदाहरणं भुवादिगणः पश्यामः. अहं धातुः वदामि, अस्तु,
शुच्
शुच् इति धातुः, अत्र उकारः अस्ति वा, धातो धातोः मध्ये उकारः अस्ति वा?
आं भगिनि,
उकारः अस्ति, उकारः अस्ति. क्रियापदं कथं परिवर्तनं भवति?
शोचति.
उकारः ओकारः भविष्यति, उकारः ओकारः भविष्यति. तादृशं भवति चेत् भुवादिगणं इति वदामः. अनन्तरं भगिनी वृत् इति धातुः, अस्तु, तस्य क्रियापदमस्ति वर्तते इति. अस्तु, वृत् इति धातुः क्रियापदमस्ति वर्तते. वृत् इति धातोः मध्ये ऋकारः अस्ति वा? ऋकारः अस्ति वृत् वृत् इति धातोः मध्ये ऋकारः अस्ति वा?
अस्ति भगिनि.
अस्ति चेत् परिवर्तनं भवति, वर्तते इति भवति. अस्तु, क्रियापदं कथमस्ति? वर्तते. अतः ऋकारः कथं परिवर्तनं भवति? अर् इति योजनेन परिवर्तनं भवति, अर्. अस्तु, उकारः अस्ति चेत् ओकारः भविष्यति, ऋकारः अस्ति चेत् अर् इति परिवर्तनं भविष्यति, वृत् इति धातुः अस्ति चेत् वर्तते अर् आगच्छति, वर्तते भविष्यति. अस्तु, अनन्तरं इ इति वदति, जि इति धातुः अस्ति, अस्तु तस्य क्रियापदं कथं भवति जयति अस्तु जयति अत्र पश्यामः चेत् इकारः एकारः भविष्यति कथं भविष्यति इति अत्र वयं न जानीमः किमर्थं चेत् सन्धिकार्यं किमपि भविष्यति अस्तु अतः जि इति धातुः इकारः अस्ति किल धातोः मध्ये इकारः अस्ति वा इकारः अस्ति चेत् क्रियापदं कथं भविष्यति जयति इति भविष्यति अस्तु अत्र ईकारः एकारः भविष्यति ईकारः एकारः इति भविष्यति कथं परिवर्तनं भवति इति वयं न जानीमः इदं किमर्थम् इत्युक्ते वयं सन्धिविषयं न पठितवन्तः अतः वयं न जानीमः अस्तु अतः यत्र धातोः मध्ये इकारः उकारः ऋकारः परिवर्तनं भवति चेत् क्रियापदे परिवर्तनं भवति चेत् भूवादिगणम् इति वदामः यदा परिवर्तनं न भवति चेत् उदाहरणार्थम् अत्र पदा पश्यामः षष्टमगणे मिलति इति अस्ति अस्तु मिल् इति धातु आ इति विकरणप्रत्ययः ति इति तिङ्प्रत्ययः अत्र परिवर्तनं न भविष्यति लिक् इति अस्ति आ इति विकरणप्रत्ययः ति इति तिङ्प्रत्ययः परिवर्तनं न भविष्यति
But in Kadatya also there is no...
Satyam, satyam. Anekani vishyani santi kramena vadami. Kramena vadami. Prataman tadusha beda hasti. Yada tudadigana hasti sarvada sarvada parivartanam na bhavati. Buvadigane kimba vishyati yatra dhatoho madhye इकारः अस्ति उकारः अस्ति ऋकारः अस्ति चेत् परिवर्तनं भवति चेत् तद् भुवादिगणः इति वदामः परिवर्तनमपि न भवितुम् अर्हति तदपि अस्ति अस्तु तद् अग्रे गत्वा गत्वा पठनेन किञ्चित् सुलभः भविष्यति वदतु
तुदादिगणे परिवर्तनं न भवति सर्वदा परिवर्तनं
सर्वदा न भविष्यति अनन्तरं कस्मिन् उदाहरणं पठति इति अस्ति चेत् अपि परिवर्तनं न भविष्यति परन्तु तद् भुवादिगणे एव अस्ति तुदादिगणे न किल
आं भगिनि
कथं वयं ज्ञास्यामः भुवादिगणे भवति वा तुदादिगणे भवति वा इति कथं वयं ज्ञास्यामः इत्युक्ते कथम् इत्युक्ते क्रिया एकं क्रियापदम् एकं धातुः अस्ति चेत् अस्तु एकः धातुः अस्ति चेत् तस्य प्रक्रिया अस्ति भगिनि प्रक्रिया अनेकविधप्रक्रिया सन्ति तद् कृत्वा कृत्वा एव वयं ज्ञास्यामः कथं उदाहरणार्थं कुरु इति धातुः करोति इति क्रियापदम् अस्ति चेत् तयोः मध्ये अनेक प्रक्रिया क्रमेण अनेकप्रक्रिया सन्ति तद् ज्ञास्यामः चेदेव वयं स्थूल भेदः अपि सूक्ष्मभेदः अपि ज्ञातुं शक्नुमः परन्तु प्रथम भेदः तदेव अस्ति अकारः अत्र द्वयोः स्थाने विकरणप्रत्ययः अकारः एव अस्ति परिवर्तनम् अस्ति चेत् भुवादिगणः परिवर्तनं सर्वदा न भवति चेत् तुदादिगणः अस्तु अनन्तरम् अन्यविषयमपि वक्तुम् इच्छामि समयः अपि जातः उदाहरणार्थं कृष् इति धातुः स्वीकुर्मः अस्तु कृष् इति धातुः धातुः एकमेव अस्तु कृषति इति अस्ति चेत् क्रियापदं कृषति इति अस्ति चेत् क्रियापदं कृषति इति भवितुम् अर्हति कर्षति अपि भवितुम् अर्हति अस्तु जानकी भगिनि
आं भगिनि
शृणोति वा
आम्
कृष् इति धातुः अस्ति
आम्
कृष् तस्य क्रियापदं कथं भवति चेत् कृषति इति अपि भवितुमर्हति कर्षति अपि भवितुमर्हति अस्तु
आम्
कृषति इति अस्ति चेत् कस्मिन् गणे भवति
सुदादिगणे
सत्यं कर्षति इति अस्ति चेत् कस्मिन् गणे भवति
भुवादिगणे
आम् सत्यम् अतः धातुः एकमेव भवति कृषिति एव धातुः परन्तु तयोः मध्ये भेदः अपि अस्ति एकः धातुः तुदादिगणे भवति अन्य धातुः भुवादिगणे भविष्यति अतः अनेकप्रक्रियाः सन्ति सर्वं वयं ज्ञातुं इदानीं बहु अधिकं भविष्यति अतः सावधानेन किञ्चित् गत्वा गत्वा अनेकविषयान् सन्ति चेत् व्याकरणम् अधिकं ज्ञास्यामः अस्तु 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 अत्र एव इदानीं स्थगयामः अग्रिमवासरे तुदादिगणे विषये आरम्भं कृत्वा अग्रे गच्छामः अस्तु
आं भगिनि
आं भगिनि धन्यवादः भगिनि
आं भगिनि धन्यवादः
धन्यवादः भगिनि
भगिनि
धन्यवादः
एकनिमिषः एकनिमिषः राधिका भगिनी पृच्छति वदतु कृपया
सुदादिगण किञ्चित् स्पष्टं वदतु भगिनि
अग्रिमवासरे अग्रिमसप्ताहे इतोपि अधिकं वदामि इदानीं समयः अपि जातः अतः अग्रिम सप्ताहे किञ्चित् अधिकम् उक्त्वा अग्रे गच्छामः
आं भगिनि वेरि इण्ट्रेस्टिङ्ग् भगिनि वेरि नैस् थेङ्क् यु भगिनि
धन्यवादः
किं भगिनि किम्
एकवर्गः
एक शनिवासरे केवलं एतस्मिन् समये एव वर्गः प्रचलति
धन्यवादः
नमस्कारः
धन्यवादः
भगिनि